एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः ध्रुव भट्टराई। सत्ता गठबन्धनस्य उपवेशने स्थानीय स्तराणाम् निर्वाचने स्वस्य संयुक्त प्रत्याशिनी मतदानम् कर्तुम् अनुरुद्धम् वर्तते। बाल्वटारवर्तिनी प्रधानमन्त्री निवासी प्रधानमन्त्रिणा सह पञ्चानाम् दलानाम् शीर्ष नेतृणा मध्ये यः उपविष्टेने उपवेशने आगामिनो वैशाख मासस्य त्रिंशे दिवसे सम्पत् समाजे निर्वाचने आराष्ट्रम् गठबन्धनम् विधातुम् नैर्वाचनिक स्वरूपस्य विषये विमृश्य संयुक्त प्रत्याशिनी मतदानार्थम् अनुरोद्धम् च निर्णीतम् वर्तते। गठबन्धनस्य अद्य उपविश्यमानेन उपवेशन नैर्वाचनिक स्वरूपम् निर्धारयितुम् निर्णीतमिति सर्वकारस्य प्रवक्ता च कांग्रेस दलस्य नेता ज्ञानेन्द्र बहादुर कार्की अज्ञापयत्। कांग्रेस दलस्य वरिष्ठ नेतु रामचन्द्र पौडेलस्य नेतृत्वस्य पञ्चदलीय निर्वाचन पूर्व कार्यानुगमन समित्या स्थानीय स्तरेभ्य प्राप्तानाम् विवरणानाम् आधारेण समन्वय स्वरूपस्य परामर्श पूर्वमेव प्रदत्तोऽस्ति। गतदिने एव पञ्चदलीय गठबन्धनस्य पक्षत अनुरोधम् प्रकाश्य सत्ता गठबन्धनस्य दलानाम् मध्ये आराष्ट्रम् स्थानम् अवस्थाम् च विलोक्य समन्वय विधीयते इति ज्ञापितमस्ति। राष्ट्रस्य विकासे गठबन्धनम् प्रतिबद्धमस्तीति ज्ञापनपूर्वकम् पारस्परिकम् विवादम् निवार्य निर्वाचने परस्परम् सहयोगो विधास्यते इति अनुरोधे उल्लिखितम् वर्तते। सभामुखः अग्निप्रसाद सापकोटा कथयति निर्वाचनस्य अवधौ यथार्थ सूचनाया अभावेन मतदातार प्रभाविता भवितुं शक्नुवन्तीति हेतो यथार्थ सूचना प्रेषणीया। राष्ट्रिय सूचना योगेन ह्यः काष्ठमण्डपे आयोजितम् निर्वाचनस्य समय यथार्थ सूचना प्रवाह इति विषयकम् अन्तर्क्रिया कार्यक्रम उद्घाटन सभामुख सापकोटा अगदत्। तथ्यपूर्ण सूचनाम् प्रेषयितुम् संचार माध्यमानाम् दायित्वम् इतोऽपि वर्धितम् वर्तते। सभामुख सापकोटा अवदत् स्थानीय स्तराणाम् निर्वाचनम् देशस्य महोत्सवो वर्तते इत्यतः निर्वाचने सर्वै उत्तरदायिभि निष्ठावद्भिश्च भाव्यम्। कार्यक्रमे प्रमुख सूचना युक्त महेन्द्रमान गुरूङ अवोचत् भ्रमम् निवारयितुम् तथ्यपूर्ण सूचना प्रवाहणीया। निर्वाचन आयोगेन अधुनावधि अष्टाविंशति जनपदानाम् कृते आवश्यकानि पञ्चचत्वारिंशत् लक्षाणि द्वाविंशति सहस्राणि च मतपत्राणि मुद्रितानि सन्तीति ज्ञापितम् वर्तते। आयोगेन ह्यः काष्ठमण्डपे आयोजिते पत्रकार सम्मेलने आगामिनो वैशाख सत्रिंशे दिवसे सम्पत्स्यमानाय स्थानीय स्तराणाम् निर्वाचनाय केन्द्रेण कर्तव्यानाम् अष्टात्रिंशत् विधानाम् निर्वाचन सामग्रीणाम् मध्ये चतुस्त्रिंशत् विधा सामग्र्यः प्राप्य सञ्चिताः सन्तीति ज्ञापितम् वर्तते। निर्वाचनाचार संहिताय प्रभावकारी क्रियान्वयनाय संचार माध्यमानाम् आयोगस्य च मध्ये समन्वय स्थापनस्य उद्देश्येन सप्तसु प्रदेशेषु अभिमुखीकरण प्रशिक्षणस्य सञ्चालनाय पूर्वकार्यम् विहितमिति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेल ज्ञापितवान्। आयोगेन संचार माध्यमे निर्वाचनाचार संहिताय पूर्णता पालनम् विहितमस्ति नवेति विषये अनुगमनाय प्रेस काउन्सिल नेपालेन सह संविधा विहितेति च ज्ञापितमस्ति। निर्वाचनाचार संहिताय अनुगमन संयन्त्रे राजनीतिक दलानाम् प्रतिनिधिनाम् सहभागिताये व्यवस्था विहितास्ति। आचार संहितायाम् उल्लङ्घितायाम् सत्यम् विधि अनुसारेण दण्डनम् विधीयते इति च निर्वाचन आयोगेन ज्ञापितमस्ति। निर्वाचन आयोगेन नेकपा एकीकृत समाजवादी दलम् निर्वाचनाचार संहिताय उल्लङ्घनस्य विषये दिवसत्रस्य अभ्यन्तरे उत्तरम् अर्पयितुम् निर्दिष्टम् वर्तते। गतदिने काष्ठमण्डपे आयोजिते नियमित पत्रकार मेलन कार्यक्रमे आयोगेन अशैव चैत्रस्य षड्विंशे दिवसे काष्ठमण्डपे आयोजितायम् जनसभायाम् निर्वाचनाचार संहिता उल्लङ्घते उल्लङ्घिताति निवेदनम् प्राप्तमिति उल्लेखनपूर्वकम् आधार प्रमाणेन सह दिवसत्रस्य अभ्यन्तरे सन्तोषजनकम् उत्तरम् दातुम् नेकपा एकीकृत समाजवादी दलम् निर्दिष्टम् वर्तते। एवमेव आयोगेन चतुस्सप्तत्यधिक द्विशततम वैक्रमाब्दस्य प्रतिनिधिसभा निर्वाचने विहितस्य व्ययस्य विषये नेपाली कांग्रेस दलस्य नेतु डाक्टर शशांक कोइराला विधात उत्तरम् अभियाचितमस्ति। अर्थमन्त्री जनार्दन शर्मा निगदति बहि प्रचारिता इव देशे आर्थिक संकटस्य अवस्था नास्ति। अर्थ मन्त्रालय ह्य आयोजिते पत्रकार सम्मेलने अर्थमन्त्री शर्मा अर्थतन्त्रस्य सूचकांकान् सार्वजनिक कुर्वन् अगदत् कोविड उनविंशति संक्रमणस्य प्रभावस्य अनन्तरम् अर्थतन्त्रस्य गतिशीलायमानावस्थायाम् साधारण जनानां व्यावसायिक जगतस्य हतोत्साहनस्य राजनीतिकरणस्य कार्यं विधीयमानं वर्तते। अर्थमन्त्री शर्मा विश्वव्यापी समस्यानां कारणेन विशद काठिन्यावस्था सत्यपि अर्थतन्त्र संकटी पतितम नास्थिति समस्पष्ट यत् अर्थमन्त्री शर्मा अर्थ मन्त्रालय सचेष्टतया अस्या समस्याया समाधानाय प्रवर्तितमस्ति ज्ञापन अवोचत् संकटस्य निवारणाय विभिन्न निर्णयान् विधातुं मन्त्री परिषदि प्रस्ताव प्रस्तुतो वर्तते। नेपाल राष्ट्रकोषस्य अधिशासकस्य महाप्रसाद अधिकारिणा निलम्बनस्य निर्णयस्य सम्बन्धे संचारकर्मिणां जिज्ञासायाम् अर्थमन्त्री शर्मा अवोचत् निर्णयसौ नियमसंगतो वर्तते। सम्प्रति अधिशासकस्य विषय अनुसन्धान समिति संघटिता स्थिति च कारणेन समित्या प्रतिवेदनस्य प्रस्तुति अनन्तरं सर्वेऽपि विषयाः स्पष्टी भविष्यन्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य सम्पादन समिति उपवेश स्वत्रिंशे दिवसे बस्ता ललितपुरावर्तिनी दलस्य केन्द्रीय कार्यालय उपवेक्षमाणेन उपवेशन स्थानीय स्तरनाम निर्वाचनस्य घोषणा पत्राय अन्तिम रूपं प्रदास्यते। दलस्य मुख्य सचिव कृष्ण प्रसाद पौडेल उपवेश सम्बद्धां सूचनां प्रकाश्य कार्य सम्पादन समिति पदाधिकारी सदस्यांश उपवेशे उपस्थिते अनुरुणत। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली निगदति एमाले दलम आधुनिक नेपालस्य निर्माण अभियाने प्रवर्तितं वर्तते। ह्य बझाङ जनपदे आयोजितं जनसभां सम्बोधयन् अध्यक्ष ओली अवदत् बालबालिकानां वृद्धवृद्धानां च पक्षधरताय कारणेन एमाले दलम प्रति जनताया आकर्षणमस्ति। गृहमन्त्री बालकृष्ण खाँड कथयति सीमित स्रोत साधना मध्ये नेपाल प्रहरीणा सशस्त्र प्रहरी बलेन च विहितानि कार्याणि प्रशंसनीयानि सन्ति। गत आर्थिक वर्षे व्यय नियमनकारी सर्वोत्कृष्टम उत्कृष्टाञ्च कर्मचारिण अवकाशोन्मुखम सशस्त्र प्रहरी महानिरीक्षकम शैलेन्द्र खनालम च सम्मानयितुं ह्य काष्ठमण्डपे आयोजित कार्यक्रमे गृहमन्त्री खाँड आगामी दिनेष्वपि सुरक्षा निकाय इतोपि शोभन कार्याणि सम्पादयिष्यन्ति इत्यपेक्षितमस्तीति अवोचत्। खाण अभासत सर्वकारण सुरक्षा निकाय श्रोतसाधने सम्पन्ना विधीयन्ते। राप्रपा नाम्ना राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन वदति राजनीतिका अवस्थायं परिवर्तितायं सत्यमपि जनताया अवस्थायं किमपि परिवर्तनं सम्भूतं नास्ति। राप्रपा दलस्य कलैया जनपद कार्य समित्या ह्य तत्र आयोजितायं बृहत् जनसभायं दल प्रवेश कार्यक्रमे च अध्यक्ष लिङ्गदेन सर्वत्र भ्रष्टाचार वृत्तिहीनता अशिक्षा च व्याप्त सन्तीति कारणेन योग्य दलेभ्य निष्ठावद्भ्यो नेतृभ्यश्च मतं प्रदातुं सर्वान् अनुरोधत्। अध्यक्ष लिङ्गदेन भ्रष्टा नेता र तस्कराश्च केन माध्यमेन धनिन सम्पन्नाश्च सन्तीति विषय अनुसन्धानस्य आवश्यकतां प्रादर्शयत्। संस्कृति पर्यटन नागरिक उड्डयन मन्त्री प्रेमबहादुर आले वदति नेपाली भोज्य पदार्थानां रसा स्वादम आविष्यं प्रथयितुं प्रमुख पाचकान भूमिका महत्वपूर्ण भवति। नेपाल पर्यटन तिथि सदन व्यवस्थापन प्रतिष्ठानेन ह्य आयोजित कार्यक्रमे असौ एवं अवोचत्।